गणानान्त्वा गणपतिगुं भवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीनामवित्रियवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यवहुतो दिशभे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया याते रुद्रशिवा तनूरघोरापापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिजागसेः यामिषुम् गिरिशम् दहस्तेऽभिभर्ष्यस्तभे शिवाम् गिरित्रताम् कुरु मानिगुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्च वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अद्य वोचदधिभक्ता प्रथमो दैव्याभिषक अहेकश्च सर्वान् जम्भयन् सर्वाच्चयातु धान्यः अतौ यस्ताम्रो अरुण उत बभ्रुत्सु मङ्गलः ये चे मागुम् रुद्रा अभितो दिक्षु श्रितात् सहस्रशो वैशागुम् हेडगेमहे असंव्यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् निष्वा भूतानि सदृष्टो मृडयाति नः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीदृशे अथो ये अस्य सत्त्वा नोऽहम् देभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरार्त्रियोर्ज्याम् यास्य देहस्त इषव पराता भगवो वपाम् अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषुधे निशीर्य शल्यानाम् मुखा शिवो न सुमना भव विज्यम् धनु कवर्दिनो विशल्यो बाणवागुम् उदा अनेशन्नस्येषव आभुरस्य निशम् गतिः या देहे तिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानाततय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अधो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుం జయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యబాహవే సేనాన్యే దిశాన్ చపతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమ సస్పింజరాయ త్విషీమతే పదేనాం పతయే నమో నమో బబ్లుషాయ వ్యాధినేన్నానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయ తకావినే క్షేత్రానాం పతయే నమో నమ సూతాయ హంత్యాయ వనానాం పతయే నమో నమో రోహితాయ స్తపతయే వృక్షానాం పతయే నమో నమో మంత్రినే వాణిజాయ కక్షానాం పతయే నమో నమో భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయాక్రందయతే పత్నీనాం పతయే నమో నమ కృత్స్న వేతాయ ధావతే సత్వనాం పతయే నమః. నమః సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమ కకుభాయ నిషంగినే సేనానాం పతయే నమో నమో నిషంగిన ఇషుధిమతే తస్కరానాం పతయే నమో నమో వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమ శ్రికావిభ్యో జిగాగుం సద్భ్యోమిష్ణతాం పతయే నమో నమో శ్రీమద్భ్యో నక్తం చరద్భ్య ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషిని గిరిచరాయ కులుంజానాం పతయే నమో నమ ఇషుమద్భ్యో ధన్వావిభ్యశ్చ వో నమో నమ ఆతన్వానేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ ఆయచ్చద్భ్యో విసృజద్భ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యద్భ్యశ్చ వో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమ తిష్టద్భ్యో దావద్భ్యశ్చ వో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యోశ్వపతిభ్యశ్చ వో నమః. నమ ఆవ్యాధినేభ్యో వివిద్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్త్రగుంహతేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో ప్రాతేభ్యో ప్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో రథిభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ सेनाभ्यस्येनानिभ्यश्च वो नमो नमः क्षत्रभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः सक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्य कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नमः इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमः शभ्यश्वपतिभ्यश्च वो नमः
नमो
भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मेदुष्टमाय चेषु मते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ओर्म्याय च वस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्धियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेनाय चाशुरथाय च नमः शूराय च वविन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च अनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषु धिमते च नमस्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शंभवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च गोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः लाद्याय च लाद्याय च नमः षष्ट्याय च भेण्याय च नमः त्रिकट्याय च प्रवाह्याय च नमः हिरण्याय च प्रपत्याय च नमः किगुंशिलाय च शयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ओर्व्याय च सोर्म्याय च नमः पर्णाय च पर्णशद्याय च नमो पगुरमानाय चाभिघ्नते च नमः आङ्खिदते च प्रक्षिदते च नमो वक्किलिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवत्केभ्यः द्रापे अन्धसस्पदे दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो येषाम् किञ्चनाममत या ते रुद्रशिवा तनो शिवा विश्वाः भेषजी शिवा रुद्रस्य भेषजी तया नो मृडजीवसे इमागुं रुद्राय तपसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्चं च योश्च मनुरायजे पिता तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकं मान उक्षन्तमुतमान उक्षितम् मानो वधीः पितरं मोद मातरं प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वधीर्हविष्मन्तो नमसा विधेमते आरान्ते गोघ्न उत पूरुषग्ने क्षयद्वीराय सुन्नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूह्यदा च न शर्म यच्च द्विबर्हा स्तुहि श्रुतम् गर्त सदं युवानम् मृगन्न भीममुपहत्नुमुग्रम् मृडाचरिद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेना परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायोः अवस्तिरामगवद्यस्तनुष्वमीड्वस्तोकाय तनयाय मृडया मेधुष्टमशिवतमशिवो न सुमना भवा परमे वृक्ष आयुधं निदाय कृत्यं वसानमाचर पिनाकं बिभ्रदागहि निगिरिदविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुं हेतयोन्यमस्मन्निवपन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराशीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याः तेषाकुं सहस्रयो जने वधन्वानि तन्मसि अस्मिन् महत्यर्णवे एन्तरिक्षे भवा अधि नीलग्रीवा क्षितिकण्ठा चर्वा अधः क्षमाचराः नीलग्रीवा क्षितिकण्ठादिवगुं रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरो नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकास कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु विपतो जनान् ये पताम् पतिरक्षय ऐलभृदा यव्युदः ये तीर्थानि प्रचरन्ति श्रुतावन्तो निषङ्गिनः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राभिरस्तिरे तेषागुं सहस्रयो जने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यां येन्तरिक्षे ये दिव्ये शामन्नं वातो वर्षमिषवस्ते भ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु देयम् दृष्मो यश्च नो द्वेष्टितम् भोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषुः सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभे स जो यगुम् शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ शञ्चमे मयश्च मे प्रियं च मेनु कामश्च मे कामश्च मे सौ मनसश्च मे भद्रं च मे त्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे ग्यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संवित् च मे ज्ञात्रम् च मे सोच्च मे प्रसोच्च मे तेरम् च मे लयश्च मृतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे देवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्ये माक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनोभिः व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्तार्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेव केवलं हर्तासि त्वमेव सर्वं खल्विदं ब्रह्मासि त्वं साक्षादात्मासि नित्यं हृतं वच्मि सत्यं वच्मि अवत्त्वं माम् अवभक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानोचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरात्तात् अवदक्षिणात्तात् अवचोर्ध्वार्तात् अवाधरात्तात् सर्वतो मां पाहि पाहि समन्तात् त्वं वाङ्मयस्त्वं चिन्मयः त्वमानन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दाद्वितीयोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदिदं त्वत्तो जायते सर्वं जगदिदं त्वत्तस्तिष्ठति सर्वं जगदिदं त्वैलयमेष्यति सर्वं जगदिदं त्वयि प्रत्येति त्वं भूमिरापो नलो निलो नभः त्वं चत्वारि वाक्पदानि त्वं गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वं देहत्रयातीतः त्वं कालत्रयातीतः त्वं मूलाधारस्थितोऽसि नित्यम् त्वं शक्तित्रयात्मकः त्वां योगिनोऽध्यायन्ति नित्यम् त्वं ब्रह्मास्त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवस्सुवरो गणादि पूर्वमुच्चार्य वर्णादीस्तदनन्तरम् अनुस्वारः परतरः अर्धेन्दुलसितम् तारेण रुद्धम् एतत्तवमनुस्वरूपम् गकारः पूर्व రూపం అకారో మధ్యమ రూపం అనుస్వారశ్చాంత్య రూపం బిందురుత్తర రూపం నాద సంధానం సగుంహితా సంధే సైషా గణేశ విద్యా గణక ఋషి నిషద్ గాయత్రీ ఛంద గణపతిర్దేవత ఓం గంగణపతయే నమః ఏకదంతాయ విద్మహే వక్రతుండాయ ధీమహి తన్నో దంతి ప్రచోదయాత్ ఏకదంతం చతుర్హస్తం పాశమంకుశధారిణం రథం చ వరదం హస్తైర్విభ్రాణం మూషకధ్వజం రక్తం లంబోదరం శూర్పకర్ణకం రక్తవాససం రక్తగంధానులిప్తాంగం రక్తపుష్పైసుపూజితం భక్తానుకంపిలం దేవం జగత్కారణమచ్యుతం ఆవిర్భూతం చ సుష్ట్యాదౌ ప్రకృతే పురుషాత్ పరం ఏవం ధ్యాయతి యో నిత్యం స యోగీ యోగినాంబరః నమో వ్రాతపతయే నమో గణపతయే నమః ప్రమథపతయే నమస్తే అస్తు లంబోదరాయైకదంతాయ విఘ్ననాశిని శివసుతాయ వరదమూర్తయే నమః ఏతదథర్వశీర్షం యోధీతే స బ్రహ్మ భూయాయ కల్పతే స సర్వ విఘ్నైర్న బాధ్యతే స సర్వత్ర సుఖమేధతే స పంచమహాపాపాత్ ప్రముచ్యతే సాయమధియానో దివసకృతం పాపం నాశయతి ప్రాతరధియానో రాత్రికృతం పాపం నాశయతి సాయం ప్రాతః ప్రయుంజానో పాపో పాపో భవతి సర్వత్రాధియానోపవిఘ్నో భవతి ధర్మార్థకామమోక్షం చ విందతి ఇదమధర్వశీర్షమశిష్యాయన దేయం యో యది మోహాద్దాస్యతి స పాపీయాన్ భవతి సహస్రావర్తనాద్యం యం కామమధీతే తం తమనేన సాధయేత్ అనేన గణపతిమభిషించతి స వాగ్మీ భవతి చతుర్థ్యామనశ్చం జపతి స విద్యావాన్ భవతి ఇత్యథర్వణ వాక్యం బ్రహ్మాద్యావరణం విద్యానమిభేతి కదాచనేతి యో దూర్వాంకురైర్యజతి స వైశ్రవణోపమో భవతి యో లాజైర్యజతి స యశోవాన్ భవతి సమేధావాన్ భవతి యో మోదక సహస్రేణ యజతి స వాంఛిత ఫలమవాప్నోతి యస్సాజ్య సమిర్భిర్యజతి స సర్వం లభతే స సర్వం లభతే అష్టౌ బ్రాహ్మణాః సమ్యగ్రాహయిత్వా సూర్యవర్చస్వీ భవతి సూర్యగ్రహే మహానద్యాం ప్రతిమా సన్నిధౌ వా జప్త్వా సిద్ధమంత్రో భవతి మహావిఘ్నాత్ ప్రముచ్యతే మహాదోషాత్ ప్రముచ్యతే మహాప్రత్యవాయాత్ ప్రముచ్యతే స సర్వవిద్భవతి స సర్వవిద్భవతి య ఏవం వేద ఇత్యుపనిషత్ భద్రం కర్ణేభిః శృణుయామ దేవాః భద్రం పశ్యే వాక్షభిర్యజత్రాః స్థిరైరంగైష్టుష్టువాగుంశస్తనోభిః యశేమ దేవహితం యదాయుః స్వస్తిర ఇంద్రో వృద్ధశ్రవాః స్వస్తిర పూషా విశ్వవేదాః స్వస్తి నస్తాక్షో అరిష్టనేమిః स्वस्ति नो बृहस्पतिर्दधातु। ॐ शान्ति शान्ति शान्ति। ॐ विष्णोर्युगम् वीर्याणि प्रवोचय्यः पार्थिवाणि विभमे रजागुंसि यो अस्कभाय दत्तरगुं सधस्थम् विचक्रमाणस्त्रेतोरुगायः विष्णोरराटवसि विश्वा पृष्टवसि विष्णोष्टत्रे स्थो विष्णो स्योरसि विष्णो ध्रुववसि वैष्णवमसि विष्टवे त्वा तदस्य प्रियमभिपातो अश्या नरो यत्र देवयवो मदन्ति अनुक्रमस्य स हि बन्धुरित्ता विष्णो पदे परमे मध्व उत्सह प्रतद्विष्णुस्तवते वीर्याय मृगो न भीम कुचरो गिरिष्ठा यस्योरिषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा परो मात्रया तनुवा मृधाना न ते महित्वमन्वश्नुवन्ति उभे ते विद्मरजति पृथिव्या विष्णो देवत्वम् परमस्य विश्वे विचक्रमे पृथिवी भेष एता क्षेत्राय विष्णुर्मनुषे दशस्यन् ध्रुवासो अस्य कीरयो जदासः अरुक्षितिगुम् सुजनिवाचकार तिर्देव पृथिवी भेष एताम् विचक्रमे शतश्च सम्महित्वा प्रविष्णुरस्तु तव सस्तवेयान् त्वेष गृह्यस्य स्थविरस्य नामा अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्या सप्तधामभिः इदम् विष्णुर्विचक्रमे त्रेधानि धदे पदम् समूढमस्य पागुम् सुरे त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः ततो धर्माणि धारयन्न विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे इन्द्रस्य युज्यः सखा तद्विष्णो परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरा तदम् तद्विप्रासो विपन्यवो जाग्रवागुम् सस्तविन्धते विष्णोर्य परमम् पदम् पर्याप्या अनन्तरायाय सर्वस्तोमोदिरात्र उत्तमः भवति सर्वस्यात्ये सर्वस्य नित्यै सर्वमेव तेना नोति सर्वम् जयते। ॐ शान्ति शान्ति शान्तिः। ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् सदाधार पृथिवीञ्जामुते माम् कस्मै देवाय हविषा विधेव य आत्मदा वलदा यस्य विश्व उपासदे प्रशिशम् यस्य देवाः यस्य छायाव्रतम् यस्य मृत्यु कस्मै देवाय हविषा विधेम य प्राणतो निमिषतो महित्वैक इन्द्रजा जगतो बभूव यैषे अस्य द्विमदश्चतुष्पदः कस्मै देवाय हविषा विधेम यस्येमे हिमवन्तो महित्वा यस्य समुद्रम् रसया सहाहुः यस्येमा प्रदिशो यस्य बाहू कस्मै देवाय हविषा विदेम ये नद्यो रुग्रा पृथिवी च हृह्णा येन स्वस्तभितं येन नाकः यो अन्तरिक्षेण जसो विवानः कस्मै देवाय हविषा विधेम यं क्रन्दसि अवसातस्तभाने अभ्यैक्ष्येताम् मनसारे जमाने यत्राधिसूर उदितो विभाति कस्मै देवाय हविषा विधेम आपो हयद्बृहतेर्विश्वमायन् गर्भम् दधाना जनयन्तेरग्निम् ततो देवानाम् समावर्तता सुरेक कस्मै देवाय हविषा विधेम यश्चिदापो महिना पर्यपश्यत् दक्षम् दधाना जनयन्तेरग्न्यम् यो देवेष्वधिदेव एक आसीत् कस्मै देवाय हविषा विधेम मानो हिंसि जनिताय पृथिव्यायो वा दिवम् सत्यधर्माजान यश्चापश्चन्द्र बृहतेर्जजानः कस्मै देवाय हविषा विधेम प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयम् स्यामवतयोरयीणा ॐ शान्ति शान्ति शान्तिः जातवेदसे सुनवाम सोममराति यतो निदहाति वेदः स नः पर्षदति दुर्गाणि विश्वानावेव सिन्धुम् दुरिताद्यग्निः ता भक्तिवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टा दुर्गाम् देवीम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयाणव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पूश्च पृथ्वी बहुला न उर्वी भवतोकायतनयाय शय्यो विश्वानि नो दुर्गः जातवेदस्यम् धुन्धनामाधुरितातिपर्षे अग्ने अत्रिवन्मनसा घृणानो अस्माकम् बोध्यभिता तनूना पृतराजितगुम् सहवानमुग्रभग्निगुम् हुवेम परवा सधस्तात् शरः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अतिदुरितात्यग्निः प्रत्नोषि कमेड्यो अध्वरेषु शराश्च होतानव्यश्च सत्से स्वाञ्चाग्ने तनुवम् पिप्रयस्मास्मभ्यम् च सौभगमायजस्व गोभिर्जुष्टमयुजो निषिक्तम् तवेन्द्रविष्णोरनुसञ्चरेम नागस्य पृष्ठममि संवसानो वैष्णवीम् लोक इह मादयन्ता कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् स्वस्य प्रजाभ्यः परिपालयन्ता ज्ञायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः